ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भावः यटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभु प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् खचरो गोचरोर्बनः अविवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्धवी पवित्रं च महाश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयं भूता आदिरादिकरो निधिः सहस्राक्षो विशालाक्ष सोमो नक्षत्रसाधकः चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः अत्रिरत्यार्नमस्कर्ता मृगवाणार्पणो नघः महातपा घोरतपा अदीनो दीनसाधकः संवत्सरकरो मन्त्रः प्रमाणम् परमं तपः योगी योज्यो महावीजो महारेता महाबलः सुवर्णरेतः सर्वज्ञः सुवीजो वीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपः स्वयं श्रेष्ठो वलवीरो वलो गणः गणकर्ता गणपतिर्दिग्वासः कामयेव च मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः कमलण्डुधरो धन्वी बाणहस्तः कपालवान् अशनी शताग्नि खड्गी पट्टीशी सायुधी महान् स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधि कुश्रीशी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृङ्गालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गन्धधारी कपर्दपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्थलः त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभु अहश्चरो नक्तञ्चरस्तिग्मन्युः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च आर्द्रचर्माम्बराव्रतः कालयोगी महानादः सर्वकामश्चतुष्पथा निशाचरः प्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरः स्वर्भानुर्मितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः घोरो महातपः पाशो नित्यो गिरिरुहो नभः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः अधर्षणो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी वलः मुदितोऽर्थो अजितो वरः गंभीर घोषो गंभीरो गंभीर वलवाहनः न्यक्रोधरूपो न्यक्रोधो वृक्षकर्णस्थितिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनम् सिद्धिः सर्वविग्रह एव च शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगोवली वेणवी पणवी ताली खली काल कटंकटः नक्षत्र विग्रह मतिर्गुण बुद्धिर्लयो गमः प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः विमोचनः सुसरणौ हिरण्यकवचोद्भवः मेद्रजो बलचारी च महीचारी स्त्रुतस्तथा सर्वतूर्यविनोदी च सर्वात्तोद्यपरिग्रह व्यालरूपो गुहावासी गुहो माली तरंगवित् त्रिदशस्त्रिकालधृक् कर्म सर्ववंध विमोचन वंधनस्त्वा सुरेन्द्राणां युधि शत्रुविनाशनः सांख्यप्रसादो दुर्वासः सर्वसाधुनिषेवितः प्रस्कंदनो विभागज्ञो अतुल्यो यज्ञभागवित् सर्ववासः सर्वचारी दुर्वासा वासवो अमरः हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहलिः सर्वकामदः सर्वकालप्रसादश्च सुबलो बलरूपधृत् सर्वकामवरश्चैव सर्वदः सर्वतोमुखः आकाशनिर्विरूपश्च निपाती ह्यवशः खगः रौद्ररूपो सुरादित्यो बहुरश्मिः सुवर्षसी वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरो अकरः मुनिरात्मनिरालोकः संभग्नश्च सहस्रदः पक्षी च पक्षरूपश्च अतिदीप्तो विषाम्पतिः उन्मादो मदनः कामो ह्यश्ववस्थोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्ठीभागो गवांपति वज्रहस्तश्च विष्कम्भी समूस्तम्भन एव च वृत्तावृत्तकरस्तालो मधुर्मधुक्लोचनः वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशान ईश्वरः कालो निशाचारीति नाकवान् निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः नन्दीश्वरश्च नन्दीत नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावः बीजाध्यक्षो बीजकर्ता आध्यात्मानुगतो बलः इतिहास सकल्पश्च गौतमोऽथ निशाकरः दम्भो ह्यदम्भो वैदम्भो वशो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधा अक्षरं परमं ब्रह्म बलवच्चक्रेव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादा सुस्वप्नो दर्पणोथा त्वमित्रजित् वेदकारो मन्त्रकारो विद्वान् समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः नीलस्तथाङ्गलुब्धश्च शोभनो निर्वग्रहः स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघु उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनां महापादो महाहस्तो महाकायो महायसः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्ठश्च महाहनुः महानासो महाकम्बुर्महाग्रीवः शमशानभाग् महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः महादन्तो महादंस्त्रो महाजिह्वो महामुखः महानखो महारोमो महाकोशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः स्नेहनो स्नेहनश्चैव अजितस्व महामुनिः वृक्षाकारो वृक्षकेतुर्नलो वायुवाहनः गण्डली मेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामस्य ऋक्सहस्रामिते क्षणः यजुः पानभुजो गुह्यः प्रकाशो जङ्गमस्तथा अमूर्घार्थः प्रसादश्च अभिगम्यः सुदर्शनः उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तं कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थ क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोस्थो ह्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ला आयुश्चैव परोपरः गन्धर्वो ह्यदितिस्तार्क्षः सुविज्ञेयः सुसारदः परस्वधायुधो देवा अनुकारी सुबान्धवः तुम्बवीणो महाक्रोधा उर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृद्यो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः स कामारिर्महादंस्त्रो महायुधः बहुधा निन्दितः सर्वः शङ्करः शङ्करो अधुना अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुद्धन्यो निलाभश्च चेकितानो हविस्तथा अजैकपाञ्च कापाली त्रिशङ्कुर्जितः शिवः धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वस्ता ध्रुवोधरः प्रभावः सर्वगो वायुर्यमा सवितारविः उसङ्गुश्च विधाता च मान्धाता भूत भावनः विभुर्वर्णादिभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रो अनिलो नलः बलवांश्चोपशान्तश्च पुराणः पुण्यसञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सुखासक्तः सदसत् सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरीसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्चदः सारग्रीवो महाजत्रु रलोलश्च महोषधः सिद्धार्थकारी सिद्धार्थश्छन्दो व्याकरणोत्तरः सिंहनादः सिंहदंष्ट्र सिंहगः सिंहवाहनः प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः सारंगो नवचक्रांगः केतुमाली सभावनः भूतालयो भूतपतिरहो रात्रमनिन्दितः वाहिता सर्वभूतानां निलयश्च विभुर्भवः अमोघः संयतो ह्यस्वो भोजनः प्राणधारणः धृतिमान मतिमान दक्षः सत्कृतश्च युगाधिपः गोपालीर्गोपतिर्ग्रामो गोचर्मवसुनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनां प्रकृष्टारीर्महाहर्षो जितकामो जितेन्द्रियः गन्धारश्च सुवासश्च तपः सक्तो रतिर्नरः महागीतो महानृत्यो ह्यप्सरो गणसेविता महाकेतुर्महाधातुर्नेकसानुचरश्चलः आवेदनीय आदेशः सर्वगन्धसुखावः तोरणस्तारणो वातः परिधिपतिखेचरः संयोगो वर्धनो वृद्धो अतिवृद्धो गुणा गांधिकः नित्यमात्मं सहायश्च देवासुरपतिः पतिः युक्तश्च युक्तबाहुश्च देवो दिवीषु पार्वणः आषाढस्य सुषाढस्य ध्रुवोऽथ हरिणो हरः वपुरा वर्तमानेभ्यो वसुश्रेष्ठो महापथः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समान्मायो समान्मायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः रत्नप्रभूतो रक्ताङ्गो महान् वनिपानवित् मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः आरोहणो अधीरोहश्च शीलधारी महायशः सेनाकल्पो महाकल्पो योगो युगकरो हरिः युगरूपो महारूपो महानागहनो वधा न्याय निर्वर्पणः पादः पंडितो ह्यचलोपमः बहुमालो महामालः शशिहरसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिलोचनो विष्णाङ्गो मणिविद्धो जटाधरः बिन्दुविसर्गः सुमुखः शरः सर्वायुधः सः निवेदनः सुखाजातः सुगन्धधारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणा मन्थानो बहुलो वायुः सकलः सर्वलोचनः कलस्तालः करस्थाली ऊर्ध्वसंहननो महा छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षः ककुहो वज्री शतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहू सर्वांगः स्वर्ण्यः सर्वलोककर्ता पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गवस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः अनन्तरूपो नैकात्मा तिक्मतेजः स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरङ्गा मनोजवः चन्दनी पद्मनालाग्रः सुरभ्युत्तरुणो नरः कर्णीकारमहास्रग्वी नीलमालिः पिनाकधृत उमापतीरुमाकान्तो जाह्नवी भृगुमाधव वरो वराहो वरदो वरेण्यः सुमहास्वनः महाप्रसादो गमनः शत्रुहा श्वेतपिङ्गलः प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखत्रयक्षो धर्मसाधारणो वरः सराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यर्षिवसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः कला काष्ठा लवा मात्रा मुहूर्ताः क्षपः क्षणः विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः तदसद्यक्तमव्यक्तम् पिता माता पितामहः स्वर्गद्वारं प्रदाद्वारं मोक्षद्वारं प्रविष्टपम् निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणी देवातिदेवो देवर्षि देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयो चिन्त्यो देवतात्मात्मसंभवः उद्भित्त्रिविक्रमो वैद्यो विरजो निरजो मरा ईद्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभ विबुधोग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः सुयुक्तः शोभनो वज्री प्रासाना प्रभवो व्ययः गुहः कान्तो निजः सर्गः पवित्रम् सर्वपावनः श्रृङ्गी श्रृङ्गप्रियो बभ्रू राजराजो निरामयः अभिरामः सुरगणो विरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः स्थावरांपतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः विमुक्तो मुक्ततेजाश्च श्रीमान् त्रिवर्धनो जगत श्रीमान् श्रीवर्धनो जगत ॐ नमः इति श्रीशिवशास्त्रनामस्तोत्रं सम्पूर्णम्।